इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। अद्य कतिपय राज्येषु विधानसभा निर्वाचनं भवति, यत्र असमराज्ये षड्विंशत्युत्तरैकशतम्, केरलराज्ये चत्वारिंशदधिकैकशतम्, पुदुच्चेरीति राज्ये च त्रिंशत् स्थानेभ्यः मतदानं भविष्यति। प्रातः सप्तवादनादारभ्य सायं षड्वादनं यावत् मतदानञ्च अनुवर्तते। स्वतन्त्रं निष्पक्षं शान्तियुतञ्च मतदानं निश्चेतुं सर्वाः व्यवस्थाः सन्ति निभालिताः। असमराज्ये राज्यस्य मुख्य निर्वाचनाधिकारी अनुराग गोयलः सर्वेभ्यः योग्य मतदातृभ्यः विधानसभा निर्वाचने स्वमतदानाय प्रार्थयत्। केरलराज्ये एकसप्ततिलक्षाधिक द्विकोटि मतदातारः सन्ति। सार्धत्रिसहस्रप्रायः मतदानकेन्द्राणि स्थापितानि सन्ति, येषु चत्वारिंशदधिकद्विसहस्राणि संवेदनशीलानीति मतदानकेन्द्राणि अभिज्ञातानि वर्तन्ते। अद्य यत्र मतदानमस्ति सर्वत्र हि मतदानार्थं सार्वजनिकविरामः घोषितोऽस्ति। पुदुच्चेरीति केन्द्रशासितप्रदेशस्य संस्कृतिं परम्पराञ्च प्रतिबिम्बयन्तः विशेषविषय आधारितमतदानकेन्द्राणि स्थापितानि सन्ति। एतदतिरिच्य तमिलनाडुराज्ये एकचरणीयमतदानाय, पश्चिमबंगप्रदेशे च प्रथमचरणीयमतदानाय नामांकनपत्रनिराकरणस्य अद्य अन्तिमः दिवसः अस्ति। मतानां गणना च अग्रिममासस्य चतुर्थे दिनांके भविष्यति। भाजपापक्षस्य वरिष्ठः नेता प्रधानमन्त्री च श्रीनरेन्द्रमोदी नैर्वाचनिकप्रचाराय अद्य पश्चिमबंगस्य हल्दियानगरं गमिष्यति। सः हल्दियानगरे सार्वजनिकसभां सम्बोधयिष्यति। तदनन्तरं आसनसोलनगरे, सूरीनगरे, वीरभूमनगरे च जनसभाः सम्बोधयिष्यति। बीजेपीति दलाध्यक्षः नितिननवीनः अद्य प्रातः सिलीगुड़ीतः माल्दानगरं गमिष्यति। केन्द्रीयमन्त्रिमण्डलेन अस्मिन् वर्षे खरीफेति शस्येभ्यः फास्फेटिक पोटेसिक इत्येताभ्याम् उर्वरकाभ्याम् सार्धैकचत्वारिंशत्कोटिरूप्यकाणाम् अनुदानस्य अनुमतिः प्रदत्तास्ति। सूचनाप्रसारणमन्त्री अश्विनीवैष्णवः ह्यः नवदेहल्याम् निर्णयानाम् विषये प्रसारमाध्यमान् सम्बोधयन् घोषणैषा प्राकटयत्। वाणिज्योद्योगमन्त्री पीयूषगोयलः अवदत् यत् भारतम् अमेरिकादेशस्य विश्वस्य सर्वाधिक परिणामात्मकम् आर्थिक सहभागित्वं निर्वहन्तौ संयुक्त लोकतान्त्रिक मूल्याधारितौ स्तः इति। ह्यः भारत अमेरिका व्यापार सौविध्य फलकस्योद्घाटने सम्बोधयन् श्रीगोयलः अवदत् यत् भारत अमेरिकादेशयोः सहभागित्वं विशेषम् अस्ति, सहैव हि अनयोः द्वैपाक्षिक व्यापारः द्रुतगत्या वर्धमानः अस्तीति च। अद्य गुजरातस्य कच्छ जनपदस्य सीमाक्षेत्रे सरदार पोस्ट इत्यत्र शौर्यदिवसः आचर्यते। अस्मिन् अवसरे वरिष्ठाः अधिकारिणः, बलस्य कर्मचारिणः, हुतात्मान गार्ड ऑफ ऑनर इति विधया वाद्यवृन्दस्य प्रदर्शनमाध्यमेन च श्रद्धाञ्जलिम् अर्पयन्ति। पञ्चषष्ट्युत्तरैकोनविंशतितमे वर्षे भारत पाकिस्तान द्वन्द्वकाले रक्षासेनानाम् असाधारणयोः साहसशौर्ययोः च स्मरणार्थं प्रतिवर्षम् अप्रैलमासस्य नवमे दिनांके शौर्यदिवसः आचर्यते। अन्ताराष्ट्रिय परमाणु ऊर्जा संस्थायाः महानिदेशकः राफेल मारियानो ग्रोसी इत्यसः तमिलनाडुराज्यस्य कल्पक्कम इत्यत्र प्रोटोटैप फास्ट बीडर रिएक्टर इत्यस्य महत्वपूर्ण सफलतायै भारतस्य प्रशंसाम् अकरोत्। विदेशमन्त्री डॉ एस जयशंकरः अद्यारभ्य मॉरिशस देशस्य संयुक्त अरब अमीरात देशस्य च आधिकारिक यात्रायां गमिष्यति। प्रवासस्य प्रथमचरणे डॉ जयशंकरः नवम हिन्द महासागर सम्मेलने भागं ग्रहीतुं मॉरिशस देशं गमिष्यति। स्वयात्रायां सः मॉरिशस देशस्य नेतृत्वेन सह मिलित्वा द्वैपाक्षिक सम्बन्धानां समीक्षाम् अपि करिष्यति। अन्ते प्रियाः श्रोतारः क्रीडावार्ता। आईपीएल इति क्रिकेट क्रीडायाः टी20 इति विधायां गतरात्रौ दिल्ली नगरस्य अरुण जेटली क्रिकेट क्रीडांगणे गुजरात टाइटन्स इति दलेन दिल्ली कैपिटल्स इति दलं एकेन धावनांकेन पराजितम् इति वार्ताः।